अथ षट् षष्टितमः सर्गः। एवमुक्तो हनुमता रामो दशरथात्मजः तं मणिं हृदये कृत्वा प्ररुरोदसलक्ष्मणः। एवमुक्तो हनुमता रामो दशरथात्मजः तं मणिं हृदये कृत्वा प्ररोदसलक्ष्मणः। तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्षितः नेत्राभ्याम् अश्रुपूर्णाभ्याम् सुग्रीवमिदमब्रवीत्। यथैव धेनुस्रवति स्नेहाद्वत्सस्य वत्सला तथा ममापि हृदयं मणिरत्नस्य दर्शनात्। मणिरत्नमिदं दत्तं वैदेह्यास्य सुरेण मे वधूकाले यथा बद्धम् अधिकं मूर्ध्नि शोभते। अयं हि जलसम्भूतो मणिः सज्जनपूजितः यज्ञे परमतुष्टेन दत्तस्य क्रीण धीमता। इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् अद्यास्म्यवगतः सौम्या वैदेहस्य तथा विभोः। अयं हि शोभते तस्या प्रियाया मूर्ध्नि मे मणिः। अस्याद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये। किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः पिपासुमिव तो ये न सिञ्चन्ति वाक्यवारिणा। इतस्तु किं दुःखतरं यदि मम वारि सम्भवं मणिं पश्यामि सौमित्रे वैदेहीम् आगतं विना। चिरञ्जीवति वैदेही यदि मासं धरिष्यति क्षणं सौम्य न जीवेयं विना तामसिते क्षणं। नयमामपि तं देशं यत्र दृष्टा मम प्रिया न तिष्ठेयं क्षणमपि प्रवृत्तिम् उपलभ्य च। कथं सा मम शुश्रोणी भीरुभीरुस्सति सदा भयावहानां घोराणां मध्ये तिष्ठति रक्षसां। शारदस्तिमिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः आवृतं वदनं तस्याः न विराजति राक्षसैः। किमाह सीता हनुमान् तत्त्वतः कथयाद्य मे एतेन खलु जीविष्ये भेषजेनातुरो यथा। मधुरा मधुरा लापा किमाह मम भामिनी मद्विहीना वरारोहा हनुमन् कथयस्व मे। मधुरा मधुरा लापा किमाह मम भामिनी मद्विहीना वरारोहा हनुमन् कथयस्व मे। इत्यार्षे श्रीमद् रामायणे सुन्दरकाण्डे षट्षष्टितमः सर्गः। आपदामपहर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहं धर्मात्मा सत्यसन्धस्य रामो दाशरथिर्यदि पौरुषे च प्रतिद्वन्द्वः शरणं जहि रावणीं श्रीरघुनन्दन परब्रह्मणे नमः। द मोमेंट रामा सा दट मणी एंड ही कुड नॉट कंट्रोल हिज टीयर्स एंड ऑल्सो लक्ष्मणा He said, Hey Sugriva, by seeing this, I remember, because it was kept in her head by her father Janaka while Dasharatha was there, and it was actually a money found in the ocean brought by Indra and was given as a gift, the present. This is that money always kept as a decoration in her hair. But now it's so sad. I'm seeing the money but not Sita. With this I was forced to feel the presence of Sita. What can I do now? Hanuman, Sita said that she'll be able to live for 1 month. Isn't it? Yes, sir. Oh, if she is able to live for 1 month, she can live forever. But I just can't live without her, even for a fraction of a second. He's also living for all the 10 months. and she said from now on for 1 month, she said. But he says, if Sita is able to live for 1 month, she can live forever. But me, I just can't live even for a second. What she said, Hanuman? And how can I live without her? I am a serious patient. I am in search of a medicine. And the medicine is her words. Hanuman, can you tell me what she said about me? And what she said? I will be surviving with those words. Please tell me, please tell me. Rama was requesting Hanuman to say the words, what exactly Sita said to him. And Hanuman was replying, you know, first he gave the money, and now he was communicating what exactly Sita said.